अनार्थः सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा शान्तिर्जाया क्षमा पुत्रः क्लेत्रमुत बान्धवा नास्ति विद्या समं चक्षुः नास्ति सत्य समं तपः नास्ति राग समं दुःखं तराग समं सुखं काकः कृष्णः पिकः कृष्ण को भेदः पिककाकयोः वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक इन्द्रकरुणापारीण हे माधव हे रामानुज हे जगत्त्रय गुरो हे पुण्डरीकाक्षमाम् हे वरयास्ताथ पालय परम् जानामि न त्वाम् विना वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ व्रजात्या कुरु मे देव सर्वकार्येषु सर्वदा गंगे च यमुने चैव गोदावरी सरस्वती नर्मदे आयुर्वैर्गुणैरि जलेस्मिन् सन्निधिं कुरु वसुदेवसुतं देवं कंसचाणूरमर्दनम् देवकी परमेशाविषे कृष्णं वन्दे जगद्गुरुं योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन यशर्थ एवत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि रामाय रामभद्राय रामचद्भोः स्वरसे रघुनाथाय नाथाय सीतायाः पतये नमः परोपकाराय फलन्ति वृक्षाः परोशेकय वहन्ति नद्यः परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् विद्या ददाति विनयाद्याति पात्रताम् पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम् ध्यायतो विषयोगाः सङ्गस्तेषूपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते क्रोधङ्गधारणां मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति एष कालभूषणं दानं सत्यं कण्ठस्य भूषणं श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् असमः आभरणं रूपं रूपस्याभरणं गुणः गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा मृदुमर्वसति जिह्वाग्रे जिह्वाग्रे मित्रबान्धवा बन्धनम् चैव जिह्वाग्रे जिह्वाग्रे मरणम् ध्रुवमग प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपक ब्रात् स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते नृपः स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पङ्ग सन्तो विदेशेषु धनम् विद्या व्यसनेषु धनम् मतिः परलोके धनम् धर्मः शीलम् सर्वत्र वैधनशारयोगः कृष्णो रक्षतु नो जगत्त्रय गुरुः कृष्णम् नमस्याम्यहम् कृष्णे नाम रशत्रवो विनिहता कृष्णाय तुभ्यः कृष्णादेव समुत्थितम् जगदिदम् कृष्णस्य दासोऽस्म्यहम् कृष्णे तिष्ठति सर्वमेतदखिलम् हे कृष्णम् आम्।